नमस्सर्वेभ्यः. अद्य कोविड वर्गस्य त्रिचत्वारिंशः पाठः, अक्टोबर् मासस्य एकादशः दिनाङ्कः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. निजन्ताः अस्माभिः अधीयमानाः सन्ति व्याकरणभागे. समासाः सविस्तरं पठिताः. प्रमुखानां तद्धितान्तशब्दानामपि परिचयः प्राप्तः. अधुना निजन्ताः इति निच् निजन्तः नामकः. निच् इति कश्चित् प्रत्ययः अस्ति. सः प्रत्ययः यस्य शब्दस्य अन्ते भवति सः निजन्तः इति कथ्यते. यथा चोरी, पाठी, कारी इत्यादि. तत्र इ इति यः भागः दृश्यते सः निचः अंशः. निजन्ताः धातवः भवन्ति. चोरी इति धातुः, पाठी इति धातुः, कारी इति धातुः इत्यादि. सामान्यतः यदा प्रयोगं वयं पश्यामः तत्र अय इति यत्र भवति अय अय इत्यादि, यथा पाठयति, चोरयति, कारयति, नाशयति इत्यादि, तत्र निजन्ताः इति सामान्यतः ज्ञातुं शक्यते. केभ्यः अयं निच् इति प्रत्ययः भवति? दशमगणस्य धातुभ्यः स्वार्थे निच् प्रत्ययः भवति. धातुषु दशगणाः सन्ति. तत्र अन्तिमः गणः चुरादिगणः इति कथ्यते. चोरयति, गणयति, कथयति, क्षालयति, बहु प्रसिद्धाः बहवः धातवः सन्ति. तत्र स्वार्थे णिच् अर्थात् णिचः योजनेन धातोः अर्थः न भिद्यते. चुर् चुरस्तेये इति धातुः, टु स्टील्. चोरि इति निजन्तस्य धातोः अपि समानः अर्थः. केवलं रूपे एव भेदः, अर्थः न भिद्यते. सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् प्रत्ययः भवति. प्रेरणा नाम अन्यं कञ्चित् कार्यं कर्तुं वयं प्रेरयामः. सो इट् इस् टु कास् सम्बडी टु डू सम्थिङ्ग्, सो टु इन्स्टिगेट् इत्यादि प्रेरणा इति कथ्यते. कासल् फार्म् इति आङ्ग्लभाषया उच्यते. पाठयति, पठति. तं पठितुं यः प्रेरयति तत्र पाठयति इति प्रयोगः. कश्चित् गच्छति, तं गन्तुं प्रेरयति इत्यर्थे गमयति. एवं खादयति, नाययति इत्यादि भवति. सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् भवति. चुरादिगणस्य धातुभ्यः अपि प्रेरणार्थे णिच् भवति, किन्तु स्वार्थे णिच् वा प्रेरणार्थे णिच् वा तत्र भेदः न भवति. रूपं तु समानं भवति. स्वयं चोरयति वा अन्यं चोरयितुं प्रेरयति वा उभयत्रापि स्वरूपं तु समानं, चोरयति इत्येव भवति. एवञ्च स्वार्थिकनिजन्ताः प्रेरणार्थकनिजन्ताः इति निजन्ताः द्विविधाः भवन्ति. तत्र अर्थे भेदः. धातोः एव अर्थः भवति वा तत्र प्रेरणारूपः अर्थः अस्ति वा इत्यत्र एव भेदः. रूपे तु समानं भवति. तत्र कोविड वर्गे मुख्यतया प्रेरणार्थकनिजन्तानाम् अध्ययनम् अस्माभिः क्रियते. तत्र गृहकार्यमासीत् निजन्तरूपं लिखत. मूलधातोः लट्लकाररूपं दीयते, तस्य निजन्तरूपं वक्तव्यम्. निजन्ताः उत्सर्गेण उभयपदिनः भवन्ति, अतः परस्मैपदे आत्मनेपदे उभयथापि रूपं भवति. उभयं वदामः. ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु. अविनाश् महोदय.
नमस्ते महोदय. हसति, हासयति.
हसति, हासयति हासयते उभयथापि
उभयथापि
गच्छति
गमयति
गमयति गमयते
गमयते
उभयं भवति धन्यवादाः अग्रिमं मिलति लक्ष्मी लक्ष्मी भगिनी नलिनी भगिनी हरिओम श्रूयते वा
वी कैन हियर यू
या महालक्ष्मी
मिलति मेलयति मेलयते
मेलयति मेलयते सम्यक् युध्यते
योधयति योधयते
सम्यक् योधयति योधयते मूलधातुः परस्मैपदी वा भवतु आत्मनेपदी वा भवतु निजन्तं तु उभयपदी भवति सम्यक् अग्रिमं प्रिया भगिनी
वन्दते वन्दयति वन्दयते
सम्यक् तरति
तारयति तारयते
तारयति तारयते उत्तमं पद्मनाभन् महोदय
नृत्यति नर्तयति नर्तयते
नर्तयति नर्तयते
ददाति दापयति दापयते वा
दापयति दापयते सम्यक् सुब्रह्मण्यं महोदय
पश्यति दर्शयति दर्शयते
दर्शयति दर्शयते निर्माति सुब्रह्मण्यं महोदय
निर्मीयति इज इट करेक्ट
आकारान्तः चेत् पकारः योजनीयः
नी इकारान्त नी इकारान्त
मा इति धातुः निर् इति उपसर्गः मा इति धातुः यथा दा धातोः दापयति एवं मा धातोः
निर्मायति निर्मायते
निर्मापयति निर्मापयते पकारः भवति दा दापयति मा मापयति निर्मापयति निर्मापकः इति वदामः सः धनं दत्त्वा चलच्चित्रस्य निर्माणं कारयति इत्यर्थः सो निर्मापयति निर्मापयते सम्यक् सीता भगिनी
सिट् गणयति नो चेञ्ज्
गणयति गणयते सम्यक् तत्र निजन्तः सः दशमगणस्य धातुः अतः समानं भवति परिवर्तनं न भवति शृणोति
शृणोति श्रावयति श्रावयते
श्रावयति श्रावयते सम्यक् उत्तमम् अग्रे वयं दृष्टवन्तः निजन्तस्य रूपाणि निजन्ताः शब्दाः धातवः भवन्ति अतः सर्वेषु लकारेषु रूपाणि भवन्ति कृदन्तरूपाणि अपि भवन्ति यथा सामान्यधातोः भिन्नभिन्नलकारेषु कृदन्त कृत्प्रत्ययेषु च रूपाणि भवन्ति एवं निजन्तानामपि धातूनां भवति स्वार्थे निजन्तः वा भवतु प्रेरणार्थे निजन्तः वा भवतु दशसु लकारेषु कर्तरि कर्मणि रूपाणि भवन्ति एवं कृदन्तरूपाणि अपि भवन्ति लट् लङ् लृट् इत्यत्र एवं लोट् विधिलिङ् अनियर्तव्य तवतुक्त त्वा ल्यप्तुमुन् सर्वत्रापि रूपाणि भवन्ति तत्र द्वितीयं गृहकार्यमासीत् निजन्तरूपाणि लिखत परीक्षादृष्ट्या एतत् बहु मुख्यम् अस्ति. कोविदपरीक्षायां मुख्यतः रूपाणि एव, केवलं धातुं दृष्ट्वा निजन्तस्य न केवलं लट् लकारे, किन्तु एवं भूत वर्तमान भविष्यत् कालेषु केचन कृदन्त शब्दाः च ज्ञातव्याः भवन्ति. तत्रैव गत्वा तस्य अभ्यासं कुर्मः. ततः पूर्वं द्वित्राः प्रश्नाः सन्ति. चुरु धातोः चोरयति इत्येव रूपं वा अन्यलकाररूपमपि अस्ति वा? सर्वलकारेषु रूपाणि भवन्ति, चोरयति, चोरयामास, चोरयतु, अचोरयत्, चोरयेत्, सर्वत्रापि भवति. किमर्थं तारयति किन्तु नर्तयति नास्ति? गतवर्गे उक्तं मूलधातुः द्रष्टव्यः. तत्र मूलधातौ तत्र अकारः नास्ति, नृत् इत्यस्ति, तत्र नर्तयति इति भवति. तृ धातुः तरति इत्यत्र मूलधातुः तृ इति अजन्तः, अजन्तधातोः वृद्धिः भवति, अतः तार इति भवति. तत्र किञ्चित् पाणिनीयव्याकरणस्य ज्ञानमस्ति चेत् अजन्तधातूनां णिच् प्रत्यये परे वृद्धिः भवति इत्यस्ति. अत एव तृ इत्यस्य तार इति भवति, तारयति इति. नृत् इत्यत्र तु अजन्तः नास्ति, अतः केवलं गुणः भवति, गुणे अर् इति भवति, नर्तयति इति. तत्र गुणः कुत्र भवति, वृद्धिः कुत्र भवति इति ज्ञातुं किञ्चित् व्याकरणस्य परिचयः अपेक्ष्यते. मूलतः तदेव, अन्ते अच् अस्ति चेत् णिच् प्रत्यये परे वृद्धिः भवति. पूर्वम् उपधायां ह्रस्वः इकारः उकारः ऋकारः अस्ति चेत् गुणः भवति इति नियमः. अस्तु, अत्र एकः इत्युक्ते अत्र साक्षात् सम्बन्धः प्रश्नः न, किन्तु तद्धितेषु अन्तिमस्य अभ्यासस्य चर्चा अभूद्वा इति. तत्र समयाभावेन मया वर्गे तेषां चर्चा न कृता. तद्धितेषु अन्तिमः यः अभ्यासः आसीत् तस्य, किन्तु तत्र तस्य उत्तराणि अस्माकं जालस्थाने स्थापितानि सन्ति. तत् एकवारं पश्यन्तु, केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु, तद्विषये पश्यामः. इदानीम् अत्र कोष्ठकमस्ति, तत्र लट् लृट् लङ् लकारेषु रूपाणि, एवं तव्य, तुमुन्, क्त्वा अथवा ल्यप्. यदि उपसर्गः नास्ति तर्हि क्त्वा, यदि उपसर्गः अस्ति तर्हि ल्यप् भवेत्. अनियर् क्तवतु इति अष्टौ रूपाणि वक्तव्यानि. तत्र एकः विषयः ज्ञातव्यः, अत्र सर्वत्र अय् इति श्रूयते लट् लृट् लङ् लकारेषु. तव्य, तुमुन्, क्त्वा इत्यत्र सर्वत्रापि अय् इति श्रूयते, किन्तु अनियर् क्तवतु इत्यत्र अय् इति न श्रूयते. तत्तु सर्वदा स्मर्तव्यम्. ओके, सो फार् अनियर् अण्ड् क्तवतु यू विल् नाट् सी द अय्, द यकार इस् नाट् सीन्. अतः तदाधारेण अभ्यासः करणीयः. प्लीज़् डू अ प्राक्टिस्, can be written or oral practice. So write down the forms immediately after the exercise. I'll show you the sheet with the forms filled. Please read and practice a few times till you are familiar. So tatra kimartham evam iti chinta apekshaya idani, you should learn to recognize the pattern and make sure you are using the correct forms. Atra ye vaktum icchanti adau ekah ekasya dhatoh udaharanam pradarshitam. लेखयति, लेखयिष्यति, तत्र लेखिष्यति इति कदाचित् प्रयोगः भवति. सो प्लीज् नोट् इट् इस् लेखयिष्यति, अलेखयत्, लेखयितव्यं, लेखयितुं, लेखयित्वा, लेखनीयं, लेखितवान् इति रूपाणि भवन्ति. अनेन क्रमेण प्रविशति ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. चन्द्रशेखरन् महोदय
प्रविशति लटि प्रवेशयति लटि प्रवेशयिष्यति लङि प्रावेशयत्
प्रावेशयत् प्र अवेशयत् प्रावेशयत्
तव्य प्रवेशयितव्यं तुमुन् प्रवेशयितुं क्त्वा ल्यबन्त अस्ति प्रवेशय इति नास्ति वा
ह्रस्वः अस्ति चेत् प्रणमय्य इत्यादि लघुपूर्वात् इति अस्ति ल्यपि लघुपूर्वादेव ऐ इति अत्र वे इत्यस्ति किल अतः प्रवेश्य
तर्हि अणिजन्ते अपि प्रवेश्य एव वा
प्रविश्य
अस्तु प्रवेश्य प्रविश्य अनियर् रूपं प्रवेशनीयं
प्रवेशनीयं
प्रविष्टवान्
न प्रविष्टवान् इति केवलस्य
प्रवेष्टवान्
प्रवेशितवान्
प्रवेशितवान्
प्रवेशितवान् प्रवेशनीयं प्रवेशितवान् सम्यक् तत्र विश् इति धातुः इकारः अस्ति अतः वेश् इति भवति सो वी शुड् always take care to separate the upasarga and then try to guess it so since it is pravish it becomes pravesh praveshayati praveshayishyati praveshayat not apraveshayat please note you have to add the a after the upasarga so praveshayat praveshayat praveshayitavyam praveshayitum praveshya praveshaniyam praveshitavan अग्रिमं जयश्री भगिनी
नमस्ते भगिनी बुध्यते लट्लकारे बोधयति बोधयते लृट् बोधयिष्यति लङ्लकार अबोधयत् अबोधयत् तव्य बोधयितव्यं तुमुन् बोधयितुं बोधयित्वा अनियर् बोधनीयं तव तु बोधितवान्
सम्यक् उत्तमं बुध् बोध् इति भवति अग्रिमं राहुल् महोदय
हरि ओम् पिबति लटि पाययते पाययति लट्लकारे पाययिष्यति लङ्लकारे अपाययत् तव्यत् पाययितव्यं तुमुन् पाययितुं त्वालिय पाययित्वा अनियर् पायनीयं तव तु पाययित्वान्
पायितवान्
नो
डबल् यकार ओन्ली वन् सो द फस्ट् वन् ओन्ली पायितवान् सम्यक् अग्रिमं गायति
नमस्ते गापयति गापयिष्यति अगापयत् गापयितव्यं गापयितुं गापयित्वा गापनीयं गापितवान्
सम्यक् उत्तमं गा इति आकारान्तः अतः पकारः भवति अग्रिमं प्रणमति रघुपति महोदय
प्रणमति लट्लकार प्रणमयति
प्रणमयिष्यति नमति अनमति प्रणमत् सारी प्र अनमत् प्रणमत् प्रणमत् प्राणमत्
प्राणमयत् अनमयत्
प्राणमयत् तव्य प्राण प्रणमयि प्रणमयि
सम्यक्
प्रणमयि प्रणमयितव्यं प्रणमयितुं प्रणम्य प्रण सारि प्रणमय्य प्रणमय्य प्रणमनि प्रणमनीयम्
आम्
प्रणमितवान्
प्रणमितवान् उत्तमम् महादेवन् महोदय
जानाति जानाति ज्ञापयति ज्ञापयिष्यति अज्ञापयत् ज्ञापयितव्यम् ज्ञापयितुं ज्ञापयित्वा ज्ञापनीयम् ज्ञापितवान्
ज्ञापितवान् सम्यक् अग्रिमं रमा भगिनि हरि ओम्
हरि ओम् मान्से ओके चलति चालयति चालयते चालयिष्यति अचालयत् चालयितव्यं चालयितुं चालयित्वा चालयनीयं चालितवान्
सम्यक् उत्तमम् नलिनी भगिनि You have to unmute yourself.
Yeah, unmuted. Namaste. Prapnoti.
Hmm.
Prapayati.
Hmm.
Prapayishyati.
Hmm.
Aprapayat.
Hmm. Pra iti upasargaha.
Aprapayat.
Na, pra apayat. Prapayat. Pra plus a
okay
plus okay. Aap so there you get savarna dirgha
right, prapayat right, sorry prapayitavyam prapayitum prapayya
prapayya
yeah prapayya प्रापणीयं प्रापितवान्
प्रापितवान् उत्तमम् करोति श्रीमती
कारयति कारयिष्यति अकारयत् कारयितव्यं कारयितुं कारयित्वा कारणीयं कारितवान्
उत्तमं
कारणीयं कारितवान्
कारणीयं कारितवान् सम्यक् उत्तमम् अन्तिमम् महालक्ष्मी
सन्तुष्यति
सन्तृप्यति
सन्तृप्यति सन्तृप्यति
तृप् becomes तर्प्
सन्तर्पयति सन्तर्पयिष्यति सन्तर्पयत् सन्तर्पयत्
समतर्पयत्
समतर्पयत्
समतर्पयत् उत्तमम्
सन्तर्प सन्तर्पयितव्यम्
सम्यक्
सन्तर्पयितुम् उपसर्गम् सन्तर्प्य
सम्यक्
सन्तर्पणीयम्
सन्तर्पणीयम्
सन्तर्पितवान्
सन्तर्पितवान् सम्यक् उत्तमम् सो अत्र सन्ति उत्तराणि ऐ अप्लोड् इट् प्लीज़् प्राक्टिस् ओके सो एस्पेशली इफ् यु आर् स्टडिङ्ग् निजन्तस् फर् द फस्ट् टैम् सो प्लीज़् रीड् दीस् वन्स् डैलि फोर् आर् फैव् टैम्स् यु विल् बि वेरि फेमिलियर् वित् द फार्म्स् ओके सो विशिष्य परीक्षादृष्ट्या रूपाणां ज्ञानं बहु मुख्यं भवति अग्रिमः भागः परीक्षादृष्ट्या न ज्ञानदृष्ट्या कथं वाक्यरचना करणीया निजन्तानाम् उपयोगेन वाक्यरचनायां केचन अंशाः ज्ञातव्याः सन्ति ओके सो प्रथमवारमेव पूर्णस्य वाक्यस्य रचनां कर्तुं प्रयत्नं कुर्मः चेत् कदाचित् दोषाः भवेयुः अतः कथं करणीयम् इति इदानीं पाठयामि two disclaimers right at the beginning so first one if you are listening to the first time please don't get disheartened because it will take some time for it to sink in okay so it is not a single rule so there are two or three rules which we have to remember to form correct sentences so प्लीज् गो थ्रू दिस् वन्स् आर् ट्वैस् पुनः पुनः श्रवणं कुर्वन्ति चेत् निश्चयेन भवति तत्र चिन्ता मास्तु प्रथमवारं शृण्वन्तु पुनः यदा वीडियो अप्लोड् भवति पुनः श्रुत्वा किञ्चित् अभ्यासं कुर्वन्ति चेत् निश्चयेन भवति अतः सावधानं शृण्वन्तु इति प्रथमं द्वितीयम् अस्य विषये सर्वे अंशाः मया न उच्यन्ते सो ऐ एम् नाट् गोयिङ्ग् टु कवर् height 100% so there may be some exceptional cases beyond what I tell right now tetu sutra baladeva nyatavyah bhavanti samanyatah prayogartham yadyad apekshitam tadvaktum prayatnam karomi prashnaah kinchit tishtantu so I will not take questions in between because I am going only stage by stage so the moment I put up the first slide I know that there will be questions So why something else is like something else and so on. So let's first listen to it fully and then prashnaha santite tesham uttaram dasyami. Preranarthaka nijante kriya dvayam bhavati sarvadapi. Yatha balakaha tandulam pachati. A boy cooks rice. Pita balakena tandulam pachayati. अत्र पाचयति इति निजन्त प्रेरणार्थक निजन्तः तत्र क्रियाद्वयमस्ति किं क्रियाद्वयम् पचनक्रिया देर् इस् द एक्चुअल् एक्ट् आफ् कुकिङ्ग् पक्तुं प्रेरणा इति द्वितीया क्रिया द एक्ट् आफ् मेकिङ्ग् सम्बडि एल्स् टु डू दट् कुकिङ्ग् इति द्वितीया क्रिया अस्ति सो दट् प्रेरणा केन् बि आफ् डिफरेण्ट् टैप्स् It can be a request, it can be a scolding, it can be a threat, whatever, depending on the context. It could be anything. It is just something which causes the boy to cook. So there are two actions. Pachana kriya iti eka kriya bhavati. Paktum prerana iti dvitiya kriya bhavati. Atra कर्ता कः इति प्रश्नं कुर्मः चेत् क्रियाद्वयम् अस्ति, अतः कर्तृद्वयम् अस्ति. कः पचनक्रियां करोति? Who does the actual cooking? बालकः. बालकः तण्डुलं पचति. That's where we are starting. अतः पचनक्रियायाः कर्ता बालकः. The person who is actually doing the action is one. कः प्रेरयति? बालकं पक्तुं कः प्रेरयति इति पश्यामः चेत् पिता. एवं केवलक्रियायाः एकः कर्ता अस्ति, प्रेरणक्रियायाः अपरः कर्ता अस्ति. तत्र पारिभाषिकरूपेण प्रेरककर्ता अथवा प्रयोजककर्ता इति वदामः. द कौसल एजेंट इति नाम. यः प्रेरणां ददाति सः प्रेरककर्ता अथवा प्रयोजककर्ता इति भवति. अत्र पिता प्रयोजककर्ता. यः वस्तुतः कार्यं करोति सः प्रेरितकर्ता अथवा प्रयोज्यकर्ता. So these two, प्रयोजक and प्रयोज्य, are the technical terms which we use. व्याकरणे. So प्रयोजक, यः प्रयोजयति प्रेरयति सः प्रयोजकः, the causal agent. Whereas प्रयोज्य is the actual agent of cooking. यः वस्तुतः कार्यं करोति. एवं कर्तृद्वयम् अस्ति इति प्रथमं ज्ञातव्यम्. सर्वत्र निजन्तप्रयोगे कर्तृद्वयं भवत्येव. यः वस्तुतः कार्यं करोति, यः तं कार्यं कर्तुं प्रेरयति. एवं कर्तृक्रियाद्वयं भवति, कर्तृद्वयं भवति. यदा वयं निजन्तवाक्यं रचयितुम् इच्छामः, कर्तरिप्रयोगे एव, निजन्तानां कर्मणि प्रयोगविषये इदानीं न चिन्तयामः. सामान्यनियमः कर्तरिप्रयोगे किं भवति? प्रेरककर्तुः प्रथमा. द कौसल् एजेण्ट् ईस् इन् प्रथमा विभक्ति. प्रेरितकर्तुः तृतीया विभक्तिः. वेरास् द actual agent, the person who actually does the action, is in tritiya vibhakti. Kartra karanayos tritiya iti vyakaranasya niyamaha. The actual vibhakti for a karta is tritiya. In this case, because the karta is related directly to the kriya is already expressing that karta, and therefore it is prathama iti vyavastha. So preraka karta, the main subject, that is the causal agent, is in prathama. Whereas the subsidiary agent, he who is acting under the influence of the preraka, he gets tritiya vibhakti. And kriyapadam preraka kartaram anusarati. Bahu mukhyam, gatavarge bahavaha prashnam prishtavantaha. How do you decide the kriyapada? It always agrees with the causal agent. Yatha pita pachayati. So पाचयति इत्यत्र पिता पाचयति. त्वं पाचयसि, त्वं मया तण्डुलं पाचयसि. तत्र पिता इति प्रेरककर्तुः प्रथमा, बालकेन, बालकः वस्तुतः पचति प्रेरितकर्ता, अतः तस्मात् तृतीया विभक्तिः. पाचयति पिता इति प्रथमपुरुषे एकवचनम्, अतः पाचयति. त्वं पाचयसि, यू मेक् मी कुक् रैस्. सो तत्र त्वम् इति प्रेरककर्ता प्रथमा विभक्तिः, मध्यमपुरुषे अस्ति इत्यतः पाचयसि. त्वं पाचयसि, यू मेक् मी कुक्. यू केनाट् पुट् पाचयामि हियर्. मया इत्यस्ति बट् अहं पचामि, त्वं पाचयसि. So preraka kartaram anusarati. So the kriyapada always goes with the causal karta, not with the person who is actually doing the this one. So tvam maya tandulam pachayasi, aham tvaya tandulam pachayami. Aham pachayami, I make you cook. So pachayasi ityatra you are making somebody cook. It could be me. Whereas aham pachayami means I am making somebody else cook. So the kriyapada should always agree as in the same purusha, the same vachana as the preraka karta. Preraka kartuhu prathama, prerita kartuhu tritiya, kriyapadam preraka kartaram anusritya bhavati iti prathamaha samanya niyamaha. So the first rule which we need to understand in making a sentence. Tatra atsya kriyapadasya vishaye itopi udaharanani darshayami. Balika uttaram likhati. So a girl is writing the answer. The teacher makes her write. So adhyapika lekhayati. Balikaya uttaram lekhayati. Balika is the original kartri, so it gets tritiya. The preraka karta gets prathama. And adhyapika lekhayati. Adhyapikaha lekhayanti. If you change this to bahuvachana, the kriyapada also changes. Even though the person doing the action, the writing is only one girl. Adhyapikaha lekhayanti. Balikaya uttaram lekhayanti. Balikaha uttaram likhanti. Adhyapika balikabhihi uttaram lekhayati. Adhyapika lekhayati. So balikaha becomes balikabhihi. Tvam lekhayasi. So balikabhihi is the same. So tvam lekhayasi. Aham lekhayami. So first thing to remember is to put the kriyapada in accordance with the preraka karta. So evam vakya lekhane kaschit kramaha ashriyate chet sulabham bhavati. So at the first stage, instead of trying to write a complete sentence, it is easier if we practice in stages. Kaha kramaha. Shishuhu vastram dharati. Iti vakyamasti. A child wears the cloth. Now mata is the preraka kartri. Shishu is the actual it is wearing. Whereas the mother makes the child wear, helps the child to wear the cloth. So now, adau kim karaniyam. Nijanta karta, the causal agent and kriya. Because they go together, first write only that. Mata in prathama and the nijanta of dharati. So mata dharayati. That is the first step. Because if you put everything in between, you will get confused which is the purusha to use, which is the vachana to use. So ignore everything else. Only the nijanta karta, that is the preraka karta and the nijanta kriya. So mata dharayati. Mother makes, causes somebody to wear. So, mata dharayati. Dvitiyam kim karaniyam. The karma padam, the actual karma padam will not change. It is still in dvitiya vibhakti. Okay, so vastram dharati, vastram dharayati. Mata vastram dharayati. Idanim, the prerita karta, the original which you have to change. So, shishuhu iti prathama asit, idanim tritiya vibhaktihi. Shishuhu ityasya tritiya vibhaktihi, shishuna. Mata shishuna vastram dharayati. So, first mata dharayati, kim dharayati, vastram dharayati. Because vastram you directly copy from there. Then, you have to convert the original karta to tritiya. Mata shishuna vastram dharayati. Idanim purnam vakyam labhyate. So directly doing here to try to convert will lead to mistakes. Adau. Yatha abhyasaha bhavati tatha anantaram shakyate. Kintu adau ayam kramaha anusaraniyaha. Atra kinchid abhyasam kurmaha. Before we go to the next step. This is not all. Please don't go back with only this and say that she thought only Tritiya Vibhakti. There is something else to come. So please listen fully. But for now, we will practice with this. So, saha dhanam dadati. He gives money. Aham is the preraka karta. I make him give money is what I want to say. Katham vadamaha kramam ashritya prayatnam kuruvantu. Avinash Mahanaya.
So, adau aham karta. Aham dapayami.
Uttamam. Aham dapayami. Okay, so first the nijanta karta and the kriya. So aham uttama purusha, so dapayami.
Then aham dhanam dapayami.
Uttamam. Aham dhanam dapayami.
Then we have to put other karta, prerit karta, that is aham tena dhanam dapayami.
Samyak. Aham tena dhanam dapayami. Uttamam. So, I make him give money is aham tena dhanam dapayami. Samyak. So, next. Ganeshaha Mahabharatam alikhat. So, Ganesha wrote Mahabharata. Vyasa made him write Mahabharata. Rao Mahodaya. You have to unmute yourself.
Shruyate ba?
Ah, Shruyate.
Okay. Vyasa. Ali. Alikhati.
So likhati becomes.
Alekhayat.
Vyasaha alekhayat. Idanim karmapadam.
Mahabharatam.
Vyasaha.
Mahabharatam alekhayat.
Samyak. Vyasaha Mahabharatam alekhayat. Idanim kartrupadam tritiya vibhaktau. Prerita karta.
Vyasaha. Ganeshena Mahabharatam alekhayat.
Samyak. Vyasaha Ganeshena Mahabharatam alekhayat. Vyasa made Ganesha write Mahabharata. Samyak. Agrimam vakyam. Vayam vastrani kshalayishyamah. Padmanabhan. So he makes us wash the cloth. That is the sentence we want.
Prerana karta saha. Kriyapada kshalayishyamah. Tahi saha. Kshalayishyati.
Samyak. Saha kshalayishyati. Next.
Then karma dhutiya vastrani eva karma pada. Saha vastrani kshalayishyati.
Samyak. Saha vastrani kshalayishyati. Idanim tritiya of vayam.
Saha asmabihi vastrani kshalayishyati.
Samyak. Saha asmabhihi vastrani kshalayishyati. He makes us wash the cloths. So vayam vastrani kshalayishyamaha. Saha asmabhihi vastrani kshalayishyati. Samyak. Etavat jnatam. Idani agre. So the default rule says that the prerita karta is in tritiya because he is a karta. And in Vyakarana, the default vibhakti for karta is tritiya. Okay. Ataha tritiya vibhakti bhavati iti samanya niyamaha. Kintu kadachit prerita kartuhu dvitiya bhavati. In some cases, we see that instead of Tritiya, the Prerita Karta is put in Dvitiya Vibhakti. Udaharanani, Dasharathaha, Ramam Vanam Gamayati. So, Dasharathaha is the Preraka Karta, Dasharathaha Gamayati, Dasharathaha Vanam Gamayati, but instead of Ramena, we have Ramam. Vidushakaha Sarvan Hasayati. The joker makes everybody laugh. So, Sarve Hasanti, Sarvan Hasayati. So, there is Dvitiya. Guruhu Shishyan Vyakaranam Bodhayati. Mata Mam Shalam Prapayati. She makes me reach school, drops me to school. Ityarthaha. So, kutra dvitiya bhavati, kutra tritiya bhavati, iti sandehaha, tatraiva kleshaha. So, tatra niyamaha jnatavyaha. So, there are 5 categories of dhatus for which there will be dvitiya vibhakti. Okay, you just have to remember those 5 categories. 5 categories of actions for which the prerita karta will be in dvitiya vibhakti in a nijanta prayoga. Tatkim iti pashyamaha. Prathamaha vargaha asti gatyarthakaha dhatavaha. Dhatus which mean movement. Gachati iti prathamam. So gachati gamayati. So tatra ramam vanam gamayati. Dvitiya bhavati. Prapnoti. So prapnoti is also movement to reach. So tatra mam shalam prapayati. Evam gatyarthaka dhatunam. Gachati, agachati, yati, prapnoti. Evam ye dhatavaha gatyarthakaha santi. Those which mean movement. To go. Ityarthe ye dhatavaha. Tatra prerita kartuhu dvitiya bhavati. So the first category to remember is dhatus which mean to go, which mean movement. Dvitiyaha vargaha asti jnanarthakaha dhatavaha. Dhatus which mean to understand, to know. Ityarthe ye dhatavaha. So bodhayati. Shishyaha vyakaranam budhyante. The students know or understand vyakarana. The guru makes the students understand vyakarana. So because jnanarthaka. So tatra shishyan bodhayati. Jambavan hanumantam svaparakramam jnapayati. So it's a famous incident from the Ramayana. Hanuman had forgotten his own power. And Jambavan made him know. Made him remember. So, jnanati jnapayati. So, tatra hanumantam svaparakramam jnapayati. So, budhyate jnanati avagachati vetti. So, all these mean to know or to understand. So, etesham vishaye dvitiya bhavati. Gatyarthakaha jnanarthakaha athava budhyarthakaha to know. To understand ityarthe. Tritiyaha vargaha asti bhojanarthakaha. Dhatus which mean to eat. Okay. So, yajamanaha vipran bhojayati. So, feeds the Brahmins. So, the Brahmins eat. The one who is doing the yajna, he feeds the Brahmins. Vipran bhojayati. Mata shishum kshiram payayati. Pibati payayati. Payayati is to drink. So bhojana is to eat or to drink or to partake, everything. So shishum kshiram payayati. So bhunkte, pibati, ashnati, all these dhatus which mean bhojana. So tatra dvitiya vibhakti hi bhavati. agre shabda karma. Shabda karma is a, I mean, the others are bit easier to understand. Shabda karma means adhatu, where the karma pada, the object, is just shabda, that is words or sounds, where sound is the karma pada. That is, guruhu shishyan vedam adhyapayati. So he teaches them the Veda. The Veda is nothing but sounds. It is shruti. So it is just a series of words which is sound. So shishyan adhyapayati. Saha balan shlokan uccharayati. He makes the boys to recite shlokas. So what is shloka? Shloka is nothing but shabda, a kind of sound. So all such actions, say Veda Madhite, studying the Vedas. So the Veda is sound. So shlokam uccharati, recites a shloka. Gitam gayati, sings a song. All these, singing is always, it has to be a sound, shabda. And similarly to chant, to recite, all such dhatus, even pathati, pathavyaktayam vachi iti. This the pathati literally means to read it out aloud, not the reading inside the mind. Okay, the original meaning of pathati is that. So pathayati ityatrapi dvitiya vibhakti bhavati. The last category is akarmakaha. So this is very simple. Intransitive verbs. Those dhatus which have no object, no karma. So hasati hasayati makes them laugh. So vidushakaha sarvan hasayati. So to bathe, snati is akarmaka. So shishum snapayati. So dhavati to run. So ashvan dhavayati makes the horses run. So ye akarmaka dhatavaha bahavaha santi. So hasati, asti, snati, dhavati, tishthati, upavishati. Etesham vishaye api dvitiya vibhaktihi bhavati. So if the action we are talking about belongs to these five categories, then the prerita karta gets dvitiya instead of tritiya. Tritiya is normal, but in specific cases, if the dhatus belong to one of these categories, then we get dvitiya vibhakti. And the easiest way to remember these five categories is actually the sutra. The sutra, the Paninian sutra for it says, gati buddhi pratyavasanartha shabda karma akarmakanam. Five words. You just have to remember these five words. Gati is movement. Buddhi is knowledge to know. Pratyavasana, this one is not familiar. Pratyavasana means to partake, to eat or drink or whatever, to ingest. Ityarthaha. Shabda karma, as I said, where the object is a sound, and akarmaka. Gati buddhi pratyavasanartha shabda karma akarmakanam. If you remember this much, the biggest job in Nijantas is done. For these five categories of dhatus, anikarta, that is the prerita karta, the person who is actually doing the action, that is a karta without nijanta, saha nau karma bhavati iti sutrasya arthaha. The sutra actually states that for these five categories, the original karta, when you convert to nijanta, he becomes the karma and therefore gets dvitiya vibhakti. Ayam sangrahaha yadi itopi asya sutrasya vishaye jnatum icchanti. So there is a link in which I had taught the sutra itself. So yesham vyakarane parichayah asti te ekavaram drashtum icchanti che drashtum arhanti. Please don't enter this if you do have, you are not familiar with Paninian Vyakarana. Yadi Vyakaranasya, Paniniya Vyakaranasya Parichaya Asti, Tarhi Ekavaram Sutrasya Vivaranam Shrinvanti Chet, Swacham Bhavati. Everything will be clear. Okay? So, if not, don't worry. Just try to remember these five words. Gati Buddhi Pratyavasanartha Shabda Karma Karmakanam. Okay. Anikarta sanau. So for these five categories, the prerita karta should be in dvitiya. For the rest, it should be in tritiya. So two steps done, which will serve 90% of the cases, but just one moment, please. So, but there are a few exceptional dhatus. Okay. So the third step is knowing a few particular dhatus themselves. Okay. These do not conform to that rule. These are exceptional cases. Okay. For these, you just have to remember these dhatus themselves. Some of them are popular dhatus, some of them are rare. So we can at least try to remember the popular dhatus. Say nayati. For nayati, it is tritiya. So even though nayati means movement, it is to take. Like prapayati, nayati is similar, but it will still be tritiya. Sevakena ghatam anayayati. Makes the servant bring the pot. Vahati is again to carry. So maya bharam vahayati. He makes me carry the load. So atra tritiya bhavati. Just remember. So khadati. Khadati means to eat. And we saw that for dhatus which mean eating, it should be dvitiya. But this is an exceptional dhatu. Therefore, it will be tritiya, not dvitiya. So atti and khadati. For these, it will be tritiya. Balakaihi annam adayati athava khadayati. He makes the boys eat rice. Bhakshayati also. These are exceptions to that sutra. Gati buddhi pratyavasanartha. So, there is something special about it. If you go to the sutra, you will understand. For now, bhakshayati is tritiya. Balakaihi modakam bhakshayati. Makes the boys eat sweets. Shabdayate is to call out. It is a rare dhatu, but I just wanted to make a table. So there it is tritiya. So mata devadattena shabdayayati. Makes him call out. Ityarthaha. This is an akarmaka dhatu, so should have been dvitiya. But as an exceptional case, it is tritiya. These are five are cases where it should have been dvitiya. If you go purely by those two rules, it should have been dvitiya. Kintu tritiya vibhakti hi bhavati. And two dhatus, pashyati, very important because darshayati ityasya prayoge, dvitiya vibhakti hi bhavati. So, mam chitram darshaya, show me your picture or show me your photo. So, tvam mam tava chitram darshaya. So, it should be not maya darshaya, mam darshaya. Dvitiya vibhakti. Similarly, jalpati. Jalpati is to rant, to talk without actually understanding. So, there also there is dvitiya. Okay. These are specific rules. There are vartikas which give these rules. So, please understand. There is one likely question. Why did Panini make it so complicated? So people keep asking me this. So please understand that Panini did not make anything complicated. Probably if he had a choice, he would have made everything uniform. Panini is only trying to analyze the usages which are in the language. So these usages are in the language and Nijanta Prayogas have a variety. So it is Panini's brilliance that he has at least put some sort of a rule. So he can say, okay, if it belongs to these five categories, put dvitiya, otherwise put tritiya. Despite that, there are a few exceptions. But from 2000 dhatus, you have two clear rules and less than 10 exceptions. Okay, so this is the easiest that he could make it. So you cannot get it easier than this. It covers all the dhatus. Okay. So from that whole set of 2000 dhatus, you just have to remember two rules. One is if that dhatu is belonging to the category of gati, buddhi, pratyavasanartha, shabdakarma or akarmaka, it is dvitiya. Otherwise, it is tritiya. Except these specific dhatus. Okay. So, when we are trying to make the actual dvitiya or tritiya, how do we decide? We have to go the reverse order. So, you cannot apply the general rule first. So, first we practiced converting it into tritiya, but you should not do that first. First step is the exceptions. You have to see if the dhatu is in the exceptions, particularly 5 popular dhatus. So, nayati, vahati, khadati, bhakshayati. For these, it is tritiya. For pashyati, it is dvitiya. So, just remember these 5 common dhatus. So, nayati, vahati, khadati, bhakshayati, etesham, tritiya, pashyati, ityasya, dvitiya. So, first step, if it is any of these 5 dhatus, you don't have to think further. Just put that particular vibhakti. Next, if it is not one of these 5, then you have to check the meaning of the dhatu. If the dhatu belongs to gati, buddhi, pratyavasana, shabda karma or akarmaka, then use dvitiya. If neither of them, it is not one of these 5 and does not belong to these categories, then tritiya. So, adau eteshu antarbhavati va iti chintaniyam. Tataha gatyarthakah va, jnanarthakah va, bhojanarthakah va, shabdakarma va, akarmakah va iti chintaniyam. Tat kimapi nasti che tritiya vibhaktihi. So, that is the order in which we have to check. Okay. So now we will try to practice. Now that we know all the rules, atra abhyasam kurmaha. So vayam natakam pashyamaha. We see a drama. So you show us the drama. So bhavati iti strilinge asti. Idani me vaktum icchanti. Priya Magini. So the same steps. So first take the karta and kriya.
Bhavati darshayati.
Bhavati darshayati. Samyak. Next karma pada.
Bhavati natakam darshayati.
Samyak. Now instead of directly putting dvitiya, we have to think. Should it be tritiya or dvitiya? The first step is to check if it is in the list of those 5 special dhatus. Nayati, vahati, we have the list here. Khadati, bhakshayati or pashyati. So, is it in that list?
Yes, pashyati is dvitiya.
Pashyati is dvitiya. So, we have to convert vayam to dvitiya. So the sentence will be
Bhavati Asman Natakam Darshayati.
Bhavati Asman Natakam Darshayati. Iti Vakyam. Samyak. Agrimam Pashyamaha. Ha. Chandrasekharan Mahodaya.
Balaha Phalani Anitavantaha. पितामह आनीत आनय आने
आनयति इत्यस्य निजन्तम्
आने
नायति नायति
नायति आ नाय आनय आनयत
आनायितवान् पितामहः आनायितवान् मेड् देम् ब्रिङ्ग् इत्यर्थः पितामहः आनायितवान् आनयति आनाययति इति लट्लकारे So because it is tavatu anayitavan.
Karma pitamaha phalani anayitavan.
Samyak phalani anayitavan. Now, should it be tritiya or dvitiya?
Vishishta dhatuhu asti. Tritiya bhavati.
So, you said this one. So nayati, vahati, khadati, bhakshayati will be
tritiya.
Tritiya. So nayati, anayati. Both of them. So it is tritiya.
Pitamahaha balaihi phalani anayitavan.
Balaihi phalani anayitavan. Samyak. So the grandfather made the boys bring fruits. Next. Pandavaha vanam agachan. Duryodhana. Duryodhana made the Pandavas go to the forest.
Adau Pandavaha.
No. Nijantakarta.
Nijantakarta. Adau Duryodhana. Agamayan.
Duryodhana.
Agamayan.
Vai agamayan.
Pandavan
gamayan. No, as I said, don't think. That is why you should only think of Duryodhana. What is the, how, what vachana is Duryodhana?
Pratham, eka vachana.
Eka vachana.
Agamayat.
Agamayat. Duryodhana agamayat. It does not matter what the vachana of other things is. It is purely the karta. So, Duryodhana agamayat. Now, the karma pada.
Gam dhatu asti gati ataha dvitiya
asti. No. The karma pada, the original
karma pada. Karma pada is vanam. So, Duryodhana vanam agamayat.
Vanam agamayat. Now, the prerita karta. Should it be tritiya or dvitiya? It is a gatyarthaka. Gati, buddhi, pratyava. It is not in the special dhatu list. Special dhatus are nayati, vahati, khadati, bhakshayati, which gets tritiya, and pashyati, which gets dvitiya. So it is not in this list. So the second thing we check is if it belongs to the five categories. Gati, buddhi, pratyavasana, shabdakarma, akarmaka. This is a gatyarthaka dhatu. Therefore, which vibhakti?
Dvitiya vibhakti.
Dvitiya vibhakti.
Ataha Duryodhana pandavan vanam agamayat.
Duryodhana pandavan vanam agamayat. Samyak. Dhanyavadaha. Next. Atithayaha sabhamanche upavishanti. So the guests are seated on the stage. Sabhamancha is the stage. Ayojakaha, the organizer, makes them sit on the stage.
Ayojakaha. Upavisha.
Nijanta of upavisha.
Upaveshitavan.
Upaveshayati. Latlakara.
Upaveshayati.
Ayojakaha. Upaveshayati. Now, karma.
Karma nasti.
Nasti. Karma nasti. So we still have ayojakaha upaveshayati. Now, the prerita karta. Should it be tritiya or dvitiya?
Karma ke dvitiya.
Dvitiya. So gati, buddhi, pratyavasana, shabda karma, akarmaka. So the moment you identify that there is no karma, that is, it is an akarmaka dhatu, it will be dvitiya vibhakti.
Atithi.
Atithin.
Atithin.
Atithin the remaining words, if there is any other vibhakti, you don't have to worry about it. We directly take it as it is. So, ayojakaha atithin sabhamanche upaveshayati. Next. Shilpi vigraham nirmati. A sculptor makes or creates an idol. The king makes the sculptor create an idol. Shrimati.
Raja nirmayati.
Nirmapayati.
Nirmapayati. Raja nirmapayati. Raja vigraham nirmapayati. Raja shilpina vigraham nirmapayati.
Samyak. Shilpina. Why? Because Nirmati is first not in the list of special dhatus. Nayati, Vahati, Khadati, Bhakshayati, Pashyati. It's not there. Second, it is not Gatyarthaka. Not movement, not knowledge, not eating, not Shabda Karma. The Karma Pada is not a Shabda and not a Karmaka. You have to follow the steps. So since it does not belong to those, it is Tritiya. Shilpina vigraham nirmapayati. Samyak. Sorry. Prashna hastiva?
Kinchidva artham avagachamaha chet etavat niyamaha dasra apply kartavyam iti nasti kalu.
No, atya artham nyatva api na shakyate kila. So just even if you know, how do you know where is dvitiya, where is tritiya? Because there is no change in the meaning. Tadachit arthenam jnayate. The only other way to do it is samskara. That is practice. That is probably the best way. So you hear a lot and you can instinctively say that this is correct and this is wrong. That is one way where you are not applying any rules at all, but still you are at least 90% correct. So if you are that if you have that much exposure to the language, that is possible. Otherwise, you have to know the rule. In this case, for this, there are some cases where artha jnanena niyama jnanam vinapi shakyate, atra na shakyate. This is in nijanta because it is like, it is just the meaning is causal everywhere. So, atra either where you are very fluent with the language. By fluent, I mean you are exposed to the language so much that you instinctively can guess what is right or wrong. Or you know the rules so that you can arrive at it. Tadeva Shakti. Okay. So, we have studied the Nijantas. Nijante kartridvayam bhavati. So, preraka karta athava prayojaka karta, the causal agent. Evam prerita karta athava prayojya karta, the one who is actually doing the action. Tatra yada kartari prayogam kurmaha, samanya niyamaha, preraka kartuhu prathama vibhaktihi. Kriyapadam preraka kartaram anusarati, you have to directly map it to the causal karta, the vachana and purusha. If you don't remove the middle things, you may go wrong. Because the vachana of the intermediate karta or the karma will not matter. It should directly relate to the preraka karta. Anyeshu padeshu parivartanam nasti. Tatra madhye saptamiva shashthiva kimapi asti chet. You can just ignore all those words and retain them in the nijanta sentence. The only problem is with the prerita karta. Prerita kartuhu dvitiya athava tritiya bhavati. So this is a case where the language itself shows varying usage. Tatra katham nirnayaha iti chet. First thing, the special dhatus. Ni vah adu khad. Nayati vahati atti khadati bhakshayati also. So tesham tritiya bhavati. Pashyati ityasya dvitiya bhavati iti smartavyam. So these you have to remember the specific dhatus. Anyatra If the dhatu belongs to these five categories, gati, buddhi, pratyavasanartha, shabdakarma, akarmakanam, prayoge, dvitiya bhavati. Anyesham prayoge, tritiya. If neither of this is true, then you have tritiya vibhakti. Iti sankshepaha. Abhyasaha diyante, kramashaha abhyasam kurvanti chet, nishchayena bhavati. So, as was told, if you practice a while, I mean, it will become sort of instinctive. Yada abhyasaha bhavati tada naturally. So ramam vanam gamayati sounds correct, and the ramena say pachayati sounds correct, but till you reach that stage, and vyakarana is helpful to remember if you have a doubt. There are many cases where even today if I am asked the Nijanta, I have to go back to Gati Buddhi and then only confirm that it is correct or it is wrong. Tattu bhavati. Ataha atra vyakaranasya prayodhanam asti laghavam. This is the only way to remember correctly what is happening. Atra ekaha dosha maya krataha bahubhihi tat drushtam. So I should have the jalpayati. I should have putram jalpayati. It was a typing error. So putram dharmam jalpayati kaha arthaha ityapi prishtam. So jalpati is to talk about dharma without understanding. I mean, there are cases where we teach the children something and they are just parroting without actually understanding it. Okay, so you just teach something where the jalpati is just to talk about it without understanding ityarthaha, because it is dvitiya putram iti bhavet. Okay, so it's not something we use very commonly. Okay. Anye prashnaha santi va? Okay. So smarayati ityatra kim bhavati iti kaschit prashnaha, tatra tritiya bhavati, because it does not belong to the any of the categories, and it is not in the special one, because the Siddhanta Kaumudi itself gives Devadattena smarayati prayoge bahudha mam smarayati tam smarayati ityadi prayogaha yeshu dineshu shruyante kintu shastra ritya tu tatra tritiya eva bhavet smarayati ityatra. Anye kepi prashnaha santi va? Na chet shvaha milamaha, shvaha raghuvamshasya vargaha, samana samaye. Gurureva gatir gurumeva bhaje gurunaiva sahasmi namo gurave, na guroh paramam shishurasmi guror matirasti gurau mamapahi guro. Dhanyavadaha.